इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। अथ वार्ताः। रूसदेशस्य राष्ट्रपतिः व्लादिमीर पुतिनः अद्य 23 भारत रशिया वार्षिक सम्मेलने भागग्रहणाय भारतम् आगमिष्यति। द्विदिवसीय यात्रायां राष्ट्रपतिः पुतिनः नवदिल्ल्यां प्रधानमन्त्रिणा नरेन्द्रमोदिना सह वार्तालापं करिष्यति। उभौ नेतारौ परस्परहितानां क्षेत्रीय वैश्विक विषयेषु विचारविनिमयं करिष्यतः। यात्रावधौ व्यापारेण अर्थव्यवस्थया स्वास्थ्यसेवया शिक्षया संस्कृत्या प्रसारमाध्यमैः च सम्बद्धानाम् अनेकेषु सन्धिपत्रेषु हस्ताक्षराणाम् अपेक्षास्ति। राष्ट्रपतिः द्रौपदी मुर्मुः अपि रूसदेशस्य राष्ट्रपतेः सम्माने भोजस्य आयोजनं करिष्यति। सञ्चारसाथे चलदूरभाषीयतन्त्रांशस्य वर्धमानस्य स्वीकार्यता दृष्ट्या सर्वकारेण दूरवाण्याः निर्मातृभ्यः अस्य तन्त्रांशस्य पूर्वस्थापनम् अनिवार्यं न कर्तुं निर्णयः कृतः अस्ति। सर्वकारेण स्पष्टीकृतं यत् नागरिकाः यदा इच्छन्ति तदा तन्त्रांशं निष्कासयितुं शक्नुवन्ति, तथा च तन्त्रांशे उपयोक्तृणां रक्षणम् अतिरिच्य अन्यत् किमपि कार्यं नास्ति इति। सञ्चारमन्त्रालयेन एकस्मिन् वक्तव्ये उक्तं यत् अद्यावधि 4.1 कोटिजनाः उपयोक्तारः सञ्चारसाथीतन्त्रांशं स्थापितवन्तः। केन्द्रीयसञ्चारमन्त्री ज्योतिरादित्य सिन्धिया ह्यः विपक्षस्य गूढचर्यायाः आरोपान् निराकृतवान्। सः अवदत् यत् सञ्चारसाथी एप्द्वारा गूढचर्या न सम्भवः न भविष्यति इति। ह्यः लोकसभायाम् एकस्य प्रश्नस्य प्रत्युत्तरे श्रीसिन्धियावर्यः स्पष्टं कृतवान् यत् उपयोक्तारः स्वसौख्येन पञ्जीकरणं कृत्वा अस्य लाभान् प्राप्तुम् एप् इत्येतत् सक्रियं कर्तुं शक्नुवन्ति, तथा च ते कदापि स्वस्योपकरणात् तत् निष्क्रियं निष्कासयितुं वा शक्नुवन्ति। सः अवदत् यत् नरेन्द्रमोदिनः प्रशासनेन नागरिकान् कपटक्रियाकलापात् रक्षितुम् एषा सुविधा प्रदत्तास्ति।
संचार साथी पोर्टल की हमने शुरुआत की थी 2023 में और संचार साथी ऐप का प्रयोग हमने 2025 में शुरुआत किया। संचार साथी एक ऐसा ऐप है जिसके आधार पर जन भागीदारी के आधार आज देश की एक एक जनता और नागरिक अपने आप को सुरक्षित रख सकता है फ्रॉड से, स्टोलन मोबाइल से, अपने स्टोलन मोबाइल को रिकॉर्ड कर सकता है, रिपोर्ट कर सकता है।
मुख्य निर्वाचनायुक्तः ज्ञानेश कुमारः 26,000 अन्ताराष्ट्रिय लोकतन्त्र निर्वाचन सहायता परिषदः अध्यक्षः अभवत्। भारतं 26,000 वर्षे अन्ताराष्ट्रिय लोकतन्त्र निर्वाचन सहायता परिषदः अध्यक्षराष्ट्राणां नूतनः अध्यक्षः निर्वाचितः। अस्य संघटनस्य 14 सदस्यदेशेषु भारतम् अन्यतममस्ति। स्वीडन देशस्य स्टॉकहोम्स नगरे श्रीकुमारः अध्यक्षपदम् अंगीकृतवान्। स्वस्य स्वीकृति भाषणे श्रीकुमारः भारतस्य लोकतान्त्रिक अभ्यासस्य परिमाणम् उद्घाटितवान्। रक्षामन्त्री राजनाथ सिंहः रूस देशस्य रक्षामन्त्री आन्द्रेई बेलोसोवः च अद्य नवदिल्ल्यां सैन्यतन्त्रज्ञान सहकार विषये 22 भारत रूस अन्ताराष्ट्रिय आयोगस्य मन्त्रिस्तरीय सभायाः सह अध्यक्षतां करिष्यतः। रक्षामन्त्रालयेन एकस्मिन् वक्तव्ये उक्तं यत् उभौ उपवेशनावधौ उभयदेशयोः रक्षाक्षेत्रे बहुपक्षीय सम्बन्धस्य समग्र श्रेण्याः समीक्षां करिष्यतः। केन्द्रीयपूर्वोत्तर क्षेत्र विकास मंत्री ज्योतिरादित्य सिंधिया अध्यारभ्य नागालैंड राज्यस्य त्रिदिवसीय यात्रायां भविष्यति। स्वस्य प्रवासावधौ श्री सिंधिया शुक्रवासरे तौफेमा ग्रामे आयोक्षमाणस्य हार्निबल उत्सवस्य भागरूपेण आयोजिते पारंपरिक शिला प्रक्षेप समारोहे भागं ग्रहीष्यति। सः अनेकाशां मंत्रालय परियोजनानां उद्घाटनं शिलान्यासं च विधास्यति। महिला बाल विकास मंत्री अन्नपूर्णा देवी अद्य नवदिल्ल्यां बाल विवाह मुक्त भारतस्य कृते शत दिवसीय जागृति अभियानस्य औपचारिक रूपेण आरम्भं करिष्यति। पुरुष क्रिकेट क्रीडायां रायपुर नगरस्य शहीद वीर नारायण सिंह अन्ताराष्ट्रिय क्रीडांगणे दक्षिण अफ्रीका दलेन भारतं 4 पराजितम्। इति वार्ताः।